प्रधान्वस्य महतो महानि सत्या सत्यस्य करणानि वाचम् त्रिकद्रुगेष्वपि मत्सुतस्यास्य मदे अहिमिन्द्रो जघान वंशेद्यामस्तभाजद्बृहन्तमारोदसी अपृणदन्तरिक्षम् सधा रजत् पृथिवीम् वप्रथच्च सोमस्य दामद इन्द्रश्चकार सद्मे वप्राचो विमिमाजमानैर्वज्रेणखान्यदृढन्नदीना वृथा सृजत्पथिभिर्दीर्घजाथैः सोमस्य दामद इन्द्रश्चकार सप्रबोल्ह्रन्परिगत्या दभीतेर्विश्वमधागायुधमिद्धे अग्नौ सङ्गोभिरश्वैरसृजद्रथेभिः सोमस्य दामद इन्द्रश्चकार स ईं महीं धुनिमेतो ररं नात्सो अस्नात्र न पारयत्स्वस्ति त उत्स्नाय रजिमभिप्रतस्थः सोमस्य दामद इन्द्रश्चकार सोदञ्जं सिन्धुमरिणान्महित्वा वज्रेणान उषसः सम्पिपेश अजपसो जबिनेभिरविभ्रश्चान् सोमस्य दामद इन्द्रश्चकार स विद्वाँ अपगोहङ्कनीनामाविर्भवन्नुदतिष्ठत्परावृक प्रतिश्रोणस्थाद्व्या अनगचष्टसोमस्य दामद इन्द्रश्चकार भिनद्वलमङ्गिरोभिरगृणानो विपर्वतस्य द्रंहिताञ्जैरत ऋणक्रोधांसि कृत्रिमाण्येषाम् सोमस्य दामद इन्द्रश्चकार स्वप्ने नाभ्युप्याचमुरिन्धुनिम् च जघन्धदस्यम् व्रदभीतिमावह रम्भे चिदत्र विविदे हिरण्यम् सोमस्य दामद इन्द्रश्चकार नूनम् सा ते प्रतिवरम् दरित्रे दुहीजदिन्द्रदक्षिणामघोनी शिक्षा स्तोत्रभ्यो मातिधग्मगो नो बृहद्वदेम विदधे सुवीराः